इच्छयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता इच्छयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्